हरिः ॐ यमददात् रभसमृणच्युतम् दिवो धासं वत्स्यस्वायदासुषे याशस्वन्दम् माचखादाभसम्पणिम् ताते धात्राणितविशा सरस्वती इयम् सुष्मेभिर्विसखा इवार्जत स्वानुगिरीणाम् तविषेभिरोर्मिभिः पारावतघ्नेमवसे सुभृक्तिभिः सरस्वती मा विवसेमधीतिभिः सरस्वती देवनिधो निबर्हया प्रजाम् विश्वस्य भृषजस्य माजिनः उतक्षितिभ्यो वनीरविन्धो विषमेभ्यो अस्रभो वाजिनीवति ॐ प्रणाधेवी सरस्वती वाजेभिर्वाजिनीवति धीनामवित्यवत् यस्त्वा देवी सरस्वती उपब्रूते धने हिते इन्द्रम् न वृत्रतुर्ये त्वम् देवी सरस्वत्यभा वाजेषु वाजिनीररापूषे वनस्वनिम् उतस्यानः सरस्वती घोराहिरण्यवर्तनि वृत्रघ्नीवस्तु सुष्टुतिम् यस्या अनन्तो अहृतस्तु एषश्चरिष्णुरन्नवः अहमश्च हरिरोर्वत् शानो विश्वाहतित्विषः स्वस्रोरन्यारतापरि अतन्नहे वसूर्यः उतनः प्रिया प्रियासु सप्तस्वसासु जुष्टा सरस्वती स्तोभ्याभूत् आपप्रुषी पार्थिवानि उरुरजो अन्तरिक्षम् सरस्वती निधस्पातु त्रिषधस्ता सप्तधातु पञ्चधाता वर्धयन्ति वाजे वाजे हव्याभूत् देवीं वाचमजनयन्त देवास्ताम् विश्वरूपाः पशवो वदन्ति सानामन्द्रेशमूर्जादुहाधेनुः वा भस्मानुभसुष्टुतैतो चत्वारि वाक्परिमिता पदानि तानि विदुर्ब्राह्मणाये मनीषिणः गुहात्रीणि निहितानेऽङ्गयन्ति तुरीयं वाचो मनुष्या वदन्ति उत त्वः पश्यन्नरर्षवाचम् उत त्वः शृण्वन्न शृणोति एनाम् उत त्वस्मं तन्वं विशस्रे जायेव पत्युः भुषति सुवासाः अम्बितमे नदीतमे देवितमे सरस्वती अप्रशस्ता इव स्मसि प्रशस्तिम् अम्बनस्कृधि पावकानः सरस्वती वाजेभिर्वाजिनीवती यज्ञं वस्तुधिया वसुः आनो दिवो बृहतः पर्वतादा सरस्वती यजतागन्तु यज्ञम् हवं देवी जुजुषाणा घृताचि सक्मान्नो वाच मुसति शृणोतु।